पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे परमानन्दसागरम् अखण्डमण्डलाकारम् व्याप्तयेन चराचरम् तत्पदं दर्शितैन तस्मै श्रीगुरवे नमः अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितैन तस्मै श्रीगुरवे नमः तस्मै श्री